एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं राष्ट्रिय मानवाधिकार आयोगेन गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे आयोगस्य अध्यक्षः तपबहादुर मगरः राष्ट्रपतेः पौडेलस्य समक्षं प्रतिवेदनमेतत् प्रास्तौत्। आयोगेन नेपालस्य संविधानस्य अनुसारेण राष्ट्रपतेः समक्षं वार्षिक प्रतिवेदनस्य प्रस्तुतेः व्यवस्था वर्तते। प्रधानमन्त्रिणा सुशीला कार्की इत्यनया पूर्व राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं निर्वाचनस्य वातावरण निर्माणाय भूमिकां निर्वोढुम् अनुरुद्धमस्ति। ह्य सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सम्भूते अनयोर्मेलने प्रधानमन्त्री कार्की भ्रष्टाचारस्य नियन्त्रणम् आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्धारितस्य निर्वाचनस्य पूर्व कार्यं च सर्वकारेण प्राथमिकतां प्रदाय विधीयमानमस्तीत्यतः सहयोगे भूमिकां निर्वोढुम् अन्वरुणत्। गत भाद्र मासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतस्य जेन्जी यूनां समूहस्य आन्दोलनस्य अनन्तरम् उत्पन्नायाः परिस्थितेः कारणेन आत्मना दायित्वं निर्व्यूढमस्तीति शर्षयन्ती प्रधानमन्त्री कार्की सर्वकारेण एतेषां घटनानाम् अनुसन्धानं विधीयमानमस्तीति प्रावोचत्। पूर्वराष्ट्रपतिः भण्डारी जेन्जी यूनां प्रदर्शनस्य क्रमे सम्भूतायाः घटनायाः दोषिणां दण्डनाय सर्वकारः सक्षमोऽस्तीति विश्वासं व्यक्तवती। पूर्वराष्ट्रपतिः भण्डारी साम्प्रतिक्यः परिस्थितेः समाधानाय निर्वाचनस्य विकल्पो नास्तीत्यतः सर्वै पक्षैः निर्वाचनं लक्ष्यीकृत्य अग्रे सर्तव्यम् इति धारणाम् अभिवेनक्। गत भाद्र मासस्य चतुर्विंशे दिवसे सम्भूतस्य आन्दोलनस्य कारणेन क्षतिग्रस्तानां संरचनानाम् अवलोकनानन्तरं पूर्वराष्ट्रपतेः भण्डारिणः प्रधानमन्त्रिणः कार्किणश्च मेलवार्ता सम्भूता आसीत्। आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः सदस्यानां निर्वाचनस्य समानुपातिक निर्वाचन प्रणाल्याः कृते ह्यः त्रयस्त्रिंशता राजनीतिक दलैः निवेदनं प्रदत्तं वर्तते। निर्वाचन कार्यक्रमस्य अनुसारेण समानुपातिक प्रणाल्यां भागं ग्रहीतुम् इच्छुकैः राजनैतिक दलैः ह्यस्तन दिवसात् श्वः त्रयोविंशं दिवसं यावत् निवेदनं दातुं शक्यते इति निर्वाचन आयोगस्य सहसचिवः यज्ञप्रसाद भट्टराय असूचयत्। प्राप्त निवेदनानि अधीत्य अस्यैव मार्गशीर्ष मासस्य षड्विंशं दिवसं यावत् तानि स्वीकरिष्यन्ते इति आयोगेन ज्ञापितम् वर्तते। तथैव आगामिनः पौषमासस्य त्रयोदशः चतुर्दशश्च दिवसौ समानुपातिक पक्षस्य प्रत्याशिनां गोप्यसूच्याः प्रस्तुत्यै समयः निर्धारितोऽस्ति। आगामिनः माघमासस्य चतुर्थे दिवसे प्रारम्भिक सूची प्रकाशयिष्यते इति आयोगेन ज्ञापितम् वर्तते। सभामुखः देवराज घिमिरे संघीय संसद महत्वपूर्ण निर्णायकस्थलं भवतीति स्पष्टीभवनत्वेन परिणामस्य प्राप्तित्वेन स कार्यं सम्पादयितुं निर्देशति। एकोनविंशस्य संघीय संसद सेवा दिवसस्य अवसरे पूर्वेद्युः काष्ठमण्डपे आयोजिते उत्प्रेरिताः कर्मचारिणः उत्कृष्ट संसद सेवा चेति विषयके कार्यक्रमे सभामुखः घिमिरे संसद महत्वपूर्णम् अंगं सदपि तस्य संचालनं कथं भवति इति विषये ध्यानाकर्षणं कर्तुं शक्तं नास्तीति उदैरयत्। तदवसरे पूर्व सचिवः राजन खनालः मनपरामर्श विज्ञः डाक्टर खगेन्द्र सुवेदी चेत्याधिवि जनैः विचारः व्यक्तः आसीत्। अधिकार दुरूपयोग अनुसन्धान आयोगेन पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थलस्य निर्माणस्य क्रमे विहिते भ्रष्टाचारस्य आरोपे पञ्चपञ्चाशतौ जनानां विरूद्धे ह्य विशेष न्यायालये याचिका निवेदनं प्रस्तुतमस्ति। आयोगेन संस्कृति पर्यटन नागरिक उड्डयन मन्त्रालयस्य तात्कालिकै मन्त्रीभि स्वर्गीयेन पोष्टबहादुर बोगटी इत्यनेन रामबहादुर श्रेष्ठेन भीमप्रसाद आचार्येण दीपक चन्द्र अमात्य इत्यनेन तात्कालिकेन अर्थमन्त्रिणा डाक्टर रामशरण महत इत्यनेन तात्कालिकैः सचिवैः नागरिकोड्डयन प्राधिकरणस्य तात्कालिकैः महानिर्देशकैः त्रिरत्न महर्जन इत्यनेन रतीशचन्द्रलाल सुमन इत्यनेन प्रदीप अधिकारिणा च सहितानां पञ्चपञ्चाशतौ जनानां विरूद्धे भ्रष्टाचारस्याभियोगे याचिका निवेदनं पञ्जीकारितमस्ति। आयोगेन पोखरा क्षेत्रीयान्तर्राष्ट्रिय विमानस्थल निर्माणायोजनायाम् अष्टानाम् अब्जानां षट्त्रिंशत कोटीनां त्रिसप्ततिर्लक्षाणां च रूप्यकाणां तेषां भ्रष्टाचारो विहितोऽस्तीति आरोपे एतेषां विरुद्धे याचिका निवेदनं पञ्जीकारितमस्तीति अधिकार दुरूपयोगानुसन्धान आयोगस्य सहायक प्रवक्ता गणेश बहादुर अधिकारी असूचयत्। विशेष न्यायालयेन नेपाल नागरिकको डैन प्राधिकरणस्य महानिर्देशकं प्रदीप अधिकारिणम् अतिरिक्तानुसन्धानाय निग्रहणे स्थापयितुम् आदिष्टमस्ति। ह्य न्यायाधीशानाम् हेमन्त रावल, डिल्ली रत्न श्रेष्ठ, विदुर कोइराला चेत्येतेषाम् न्यायपीठेन एवं आदिष्टमस्ति। अधिकारिणा सह अनुसन्धानाय निग्रहणे विद्यमानं मुरारी भण्डारिणं तु न्यासवित्तत्वेन पञ्चलक्ष्याणि रूप्यकाणि संस्थाप्य उन्मोक्तुम् न्यायालयेन आदिष्टमस्ति। गृहमन्त्री ओमप्रकाश अर्यालः कथयति जेन्जी युवसन्तत्याः अग्रणी नेतृत्वैः उपस्थापितं विषयं सम्बोधयितुं सर्वकारः अनुकूलो वर्तते। ह्य गृहमन्त्रालये जेन्जी युवप्रतिनिधिभिस्सह विमर्शने मन्त्री अर्यालः आन्दोलनस्य पृष्ठभूमौ निर्मितेन सर्वकारेण जेन्जी यूनां भावनायाः प्रतिकूलस्य कथं विधस्यापि निर्णयस्य विषयः चिन्तयितुमपि न शक्यते इति उदैरयत्। तदवसरे गृहमन्त्री अर्यालः गत भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसयोः घटना सर्वकारेण एकपक्षतः एव समीक्षिता नास्ति, समेषां विषयत्वेन गृहीता वर्तते इति चर्चयन् जेन्जी यूनां कतिपय विषयाः सम्बोध्य निष्पक्षरूपेण सर्वकारेण कार्याणि विधास्यन्ते इति समस्पष्टयत्। विमर्शने जेन्जी यूनां पक्षतः दशजनाः प्रतिनिधय, महान्यायाधिवक्ता सविता भण्डारी, गृहसचिवः रामेश्वर दंगालः, नेपाल प्रहरी प्रमुखः दानबहादुर कार्की, मन्त्रालयस्य शान्ति सुरक्षा महाशाखायाः पदाधिकारिणश्च समुपस्थिताः आसन्। स्वास्थ्य जनसंख्या मन्त्री डा सुधा शर्मा गौतमः निगदति सर्वकारेण माध्यमिक शिक्षा परीक्षायाः अनन्तरं प्रवीणता प्रमाणपत्र स्तरीयाय परिचारिका सम्बद्धाय अध्ययनाय नैरन्तर्यं प्रदातुं पूर्वकार्यं विधीयमानमस्ति। चितवन जनपदे ह्य आयोजिते कार्यक्रमे मन्त्री डा गौतमः सम्प्रति चिकित्सालयेषु आवश्यकानां स्वास्थ्य परिचारिकानां संख्या न्यूना अस्तित्यतः प्रवीणता प्रमाणपत्र स्तरे परिचारिका सम्बद्धं कार्यक्रमं संचालयितुं पूर्वकार्यं विधीयमानमस्ति इति प्रावोचत्। मधेश प्रदेशस्य नवनियुक्तेन मुख्यमन्त्रिणा कृष्णप्रसाद यादवेन ह्य पदगोपनीयतयोः शपथः गृहीतोऽस्ति। प्रदेश प्रमुखस्य कार्यालये ह्य मधेश प्रदेशस्य प्रमुखः प्राध्यापकः डा सुरेन्द्र लाभ कर्णः नवनियुक्तं मुख्यमन्त्रिणं यादवं पदगोपनीयतयोः शपथम् अग्राहयत्। मधेश प्रदेशस्य त्रयः मन्त्रिणश्च ह्य शपथं गृहीतवन्तः। मुख्यमन्त्रिणः यादवस्य नेतृत्वे संघटिते सर्वकारे जनमतदलस्य संसद दलस्य नेतारं महेश प्रसाद यादवं अर्थमन्त्रिणः रूपेण प्रदेश प्रमुख डा कर्ण शपथ ग्रहणम् अकारयत्। एवमेव प्रदेश प्रमुख डा कर्णः नेपाली कांग्रेस दलस्य जंगीलाल राय इत्यमुं नेकपा एकीकृत समाजवादी दलस्य प्रमुख सचेतक पदीयं कनिष पटेलं च विना विभागीय मन्त्रित्वेन पदगोपनीयतयो शपथम् अग्राहयत्। मधेश प्रदेश सर्वकारस्य नवनियुक्त मुख्यमन्त्री कृष्णप्रसाद यादवः अस्यैव मार्गशीर्ष मासस्य चतुर्विंशे दिवसे विश्वासस्य मतं गृहीता।